श्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्वत आनश्रण्वन् ज्योतिभिस्सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती दीनामविद्यवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ यो वां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनं वेदा आयतनवान् असौ वै तपन्नपामायतनम् आयतनवान् भवति यो मुष्यतपत आयतनं वेदा आयतनवान् भवति आपो वा अमुष्यतपत आयतनम् आयतनवान् भवति य एवं वेदा आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनं वेदा आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनं वेदा आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनं वेदा आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेदा योपामायतनं वेदा आयतनवान् भवति संवत्सरो वा अपामायतनम् तस्यायतनं वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनं आयतनवान् भवति य एवं वेद योऽप्सुनावं प्रतिष्ठितां वेद प्रत्येवतिष्ठति राजाधिराजाय प्रसह्य सायिने नमो वयं मयि श्रवणाय कुर्महे समेका